Book 2
24
Cuộc hẹn
Mulaqat
Bạn bị nhỡ xe buýt rồi à?
क्या तुम्हारी बस निकल गई थी?
Tôi đã đợi bạn nửa tiếng rồi.
मैं आधे घंटे तक तुम्हारी प्रतीक्षा कर रहा था.
मैं आधे घंटे तक तुम्हारी प्रतीक्षा कर रही थी.
Bạn không mang theo điện thoại di động sao?
क्या तुम्हारे पास मोबाइल फोन नहीं है?
क्या तुम्हारे पास मोबाइल फोन नहीं है?
Lần sau hãy đến đúng giờ nhé.
अगली बार ठीक समय पर आना.
Lần sau lấy xe taxi đi nhé.
अगली बार टैक्सी लेना.
Lần sau nhớ mang theo một cái ô.
अगली बार अपने साथ एक छतरी ले जाना.
Ngày mai tôi được nghỉ.
कल मेरी छुट्टी है.
Ngày mai chúng ta có gặp nhau không?
क्या हम कल मिलें?
Xin lỗi nhé. Ngày mai tôi không rảnh rỗi.
माफ करना, कल मैं नहीं आ सकूंगी.
Cuối tuần này bạn có dự định gì chưa?
क्या तुमने इस सप्ताहांत के लिए पहले ही कार्यक्रम बनाया है?
क्या तुमने इस सप्ताहांत के लिए पहले ही कार्यक्रम बनाया है?
Hay bạn đã có hẹn rồi?
या तुम किसी से मिलने वाले हो?
Tôi đề nghị chúng ta gặp nhau vào cuối tuần.
मेरी राय है कि हम सप्ताहांत में मिलें.
Chúng ta đi dã ngoại không?
क्या हम पिकनिक जाएं?
Chúng ta ra bờ biển không?
क्या हम किनारे पर जाएं?
Chúng ta đi lên núi không?
क्या हम पहाड़ों में जाएं?
Tôi đón bạn ở văn phòng nhé.
मैं तुम्हें कार्यालय से ले लूंगी.
Tôi đón bạn ở nhà.
मैं तुम्हें घर से ले लूंगी.
Tôi đón bạn ở bến xe buýt.
मैं तुम्हें बस स्टॉप से ले लूंगी.